अज्ञानतिमिरान्धस्य ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः। वञ्चाकल्पतरुभ्यश्च कृपासिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमो महाबदन्नाय कृष्णप्रेमप्रदायते कृष्णाय कृष्णचैतन्य नाम्ने गौरतिशे नमः। गुरवे गौरचन्द्राय राधिकायै तदाले कृष्णाय कृष्णभक्ताय तदभक्ताय नमः। यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातरया इव कुत्रेति तन्मयतया तर्वोभिनिदु तं सर्वभूतहृदयं मुनिमा अङ्गश्यामलिं छटा विरभितो मन्दीकृतेन्दीवरं जड्डञ्जाबुद्रोचिसं विदध तं पट्टम्बरस्य बृन्दारण्यनिवासिनं हृदि लसद्दामाभिरामोदरं राधास्कन्दनिवेशितो जलभुजं तवैवास्मि न जीवामि त्वया विना इति विज्ञाय राधे तं न माम् चरणं।